इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका ऋचा झा। अथ वार्ताः। देशेन ह्यः अशीतितमः स्वातन्त्र्यदिवसः आचरितः। अस्मिन् अवसरे प्रधानमन्त्री नरेन्द्रमोदी रक्तदुर्गस्य प्राचीरात् राष्ट्रियध्वजम् आरोहितवान् तथा अनेकाः महत्वपूर्णाः घोषणाः कृतवान्। राष्ट्रं सम्बोधयन् प्रधानमन्त्री कथितवान् यत् विगतेष् द्वादशवर्षेष् देशस्य कोटिशः नागरिकाः स्वसंकल्पेन समर्पणेन च देशं नूतनास् उन्नतिष् नेतुं सर्वसम्भवं प्रयत्नम् अकुर्वन्। प्रधानमन्त्री सबलं प्रतिपादितवान् यत् बृहन् स्वप्नाः दृढतराः संकल्पाश्च राष्ट्रस्य प्रयत्नानां समग्रं स्तरं सामर्थ्यं च वर्धयन्ति।
कोई भी राष्ट्र तब महान बनता है जब अपने सपनों, अपने संकल्पों और अपने सामर्थ्य के दम पर आगे बढ़ता है। बड़े सपने हमारी सोच को विस्तार देते हैं, हमारे संकल्प दृढ़ होने चाहिए। जब संकल्प दृढ़ होता है तो कठिनाइयों से, आपदाओं के बीच से रास्ते निकालने का सामर्थ्य अपने आप उभर करके आता है।
विकसित भारताय यूनां महिलानां च सशक्तीकरणे बलं दत्त्वा प्रधानमन्त्री नरेन्द्र मोदी विभिन्नानां लोकसेवा परीक्षाणां कृते निर्धन मध्यम वर्गीय परिवाराणां युवभ्यः निःशुल्कम् अन्तर्जाल माध्यमेन प्रशिक्षणं प्रदातुं घोषणां कृतवान्। सः इदमपि घोषितवान् यत् प्रशासनेन आगामि एकवर्षे एककोटि युवभ्यः AI इति कृत्रिम बुद्धिमत्ता कौशलस्य प्रशिक्षणं प्रदातुं निर्णयः कृतः। केन्द्रीय सहकारिता मन्त्री अमितशाहः अद्य राजस्थानस्य अलवर नगरे स्थिते अलवर सरस दुग्ध परिसरे नूतनस्य दुग्ध संयंत्रस्य आधारशिलां स्थापयिष्यति। सहकारिता मन्त्रालयेन संसूचितं यत् अस्मिन् अवसरे अन्तर्जालीय माध्यमेन शिलान्यासः क्रियते तथा राजस्थानस्य 17 जनपदेषु 260,000,000,000 रूप्यकाणां विभिन्न विकास परियोजनानां उद्घाटनमपि अन्तर्जालीय माध्यमेनैव करिष्यते। एतदतिरिक्तम् आजीविकोत्सवस्य अन्तर्गतं नव नियुक्तेभ्यः 15,000+ कर्मिभ्यः नियुक्तिपत्राणि अपि वितरिष्यन्ते। उपराष्ट्रपतिः CP राधाकृष्णन् अद्यारभ्य तमिलनाडु राज्यस्य 2-दिवसीय यात्रायां भविष्यति। यात्रावधौ असौ चेन्नई चेंगलबट्टु तिरुवरूर तंजावूर नगरेष् विविधेष् शैक्षणिकेष् स्मारकेष् साहित्यिकेष् च कार्यक्रमेष् भागं ग्रहीष्यति। अद्य श्रीराधाकृष्णन् चेंगलबट्टु नगरे SMR विज्ञान प्रौद्योगिकी संस्थायाः 22वें दीक्षांत समारोहे भागं ग्रहीष्यति। सः चेन्नई नगरे नागालैंड मणिपुर पश्चिम बंगाल राज्यानां पूर्व राज्यपालस्य प्रथम पुण्यतिथेः कार्यक्रमे अपि भागं ग्रहीष्यति। ततः परं उपराष्ट्रपतिः चेन्नई नगरे इकोज ऑफ अ नेशनलिस्ट माइंड इति पुस्तकस्य विमोचन कार्यक्रमे अपि भागं ग्रहीष्यति। दिल्ली प्रशासनेन दिल्ली परिवहन निगमस्य बसयानेषु महिला यात्रिणां कृते प्रचलितायाः कागद निर्मित पाटल चटिका व्यवस्थायाः अवधि अस्य मासस्य 31 दिनांक पर्यन्तं विस्तृतः अस्ति। परिवहन विभागस्य आदेशानुसारं निःशुल्क बस यात्रायै महिलाः DTC अथ दिल्ली क्लस्टर इत्येतयोः बस यानेषु कागद निर्मित पाटल चटिकायाः उपयोगं निरन्तरं कर्तुं शक्नुवन्ति। प्रथमवारं आयोजिता सूर्यपथ त्रिरंग वैश्विक यात्रा ह्यः सम्पन्ना। इयं यात्रा पश्चिमदिशि फिजी देशादारभ्य संयुक्त राज्य अमेरिका पर्यन्तं 45 देशेष् बहुष् च कालक्षेत्रेष् सम्पन्ना। अमृतोद्यानम् अद्यारभ्य आगामि मासस्य 15 दिनांक पर्यन्तं सामान्य जनेभ्य उद्घाटितं भविष्यति। अस्माकं वार्ताहरानुसारं उद्यानं प्रातः 10 वादनात् सायं 6 वादन पर्यन्तं उद्घाटितं भविष्यति। अन्तिम प्रवेशः सायं 5 वादनं पर्यन्तमेव भविष्यति। अनुरक्षण कार्याय उद्यानं प्रत्येकं सोमवासरे पिधानं भविष्यति। इति वार्ताः।